सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, अद्य नूतनपाठः आरभ्यते। पाठस्य शीर्षकमस्ति मातुः पाठस्य वैलक्षण्यम्। वैलक्षण्यम् इति एकं पदमस्ति, तत्पदं तद्धितप्रत्ययान्तपदमस्ति। नामपदस्य मूलरूपं प्रातिपदिकं, क्रियापदस्य मूलरूपमस्ति धातुः। तद्धितप्रत्ययाः प्रातिपदिकात् विधीयन्ते, किन्तु कृत् प्रत्ययाः, तिङ् प्रत्ययाः, एते प्रत्ययाः धातुभ्यः विधीयन्ते। अत्र वैलक्षण्यम् इति पदं तद्धितप्रत्ययान्तपदमस्ति। अद्यतन अस्माकं शीर्षकमस्ति मातुः पाठस्य वैलक्षण्यं। पुष्पादीक्षित, मातुः पाठनशैल्यां किं वैशिष्ट्यम् अस्ति? मातुः पाठनशैल्यां, पद्धत्यां कः भेदः अस्ति? सिद्धान्तकौमुदी मार्गेण पठनेन कुत्रचित् छात्राः कष्टम् अनुभवन्ति, सिद्धान्तकौमुदी मार्गेण पठनेन तस्मिन् मार्गे सौकर्यं नास्ति, तत्र किञ्चित् काठिन्यमस्ति, अतः भिन्नपाठनशैली, पठनपाठनशैली मातृभिः कृतमस्ति। तस्मिन् प्रसङ्गे अद्य एकवारम् अवलोकयामः। भवतां पार्श्वे मातृभिः लिखितं पुस्तकमस्ति इति भावयामि। प्रक्रियानुसारी धातुपाठः इति एकं पुस्तकमस्ति, मातृभिः लिखितं पुस्तकमस्ति प्रक्रियानुसारी धातुपाठः। तस्मिन् पुस्तके भिन्नरीत्या, भिन्नशैल्या धातूनाम् आयोजनं कृतमस्ति। उपद्विसहस्रं धातवः सन्ति। पाणिनीयधातुपाठे धातवः भिन्नरीत्या आयोजिताः सन्ति। सूत्राणि अवलम्ब्य अष्टाध्याय्यां सूत्राणि यादृशरीत्या तत्र आयोजितानि सन्ति, तानि सूत्राणि सर्वाणि समग्ररीत्या पठित्वा, समग्रं चिन्तनं कृत्वा माताजी भिन्नरीत्या धातूनाम् आयोजनं कृतवती तस्मिन् पुस्तके। पुस्तकम् अस्माकं पुरतः अस्ति चेत् इतोपि सुलभतया अवगन्तुं शक्नुमः कस्मिन् कस्मिन् स्तरे पाठनशैली कथं भिन्नं भवति, मातृभिः कृतं विधानं कस्मिन् स्तरे भिन्नता दृश्यते, कुत्र भेदः अस्ति, कुत्र साम्यम् अस्ति इति अवगन्तुं शक्नुमः। प्रक्रियानुसारी धातुपाठः इति पुस्तकम् अस्माकं पुरतः अस्ति चेत् तस्मिन् पुस्तके धातूनाम् आयोजनं केन प्रकारेण कृतमस्ति इति वयं पुस्तकं दृष्ट्वा अवगन्तुं शक्नुमः। किन्तु आदौ अस्माकं करपत्रे किं लिखितमस्ति एकवारं पश्याम। मातुः पाठस्य वैलक्षण्यं, मातुः पाठः, पठ्धातोः रूपमेव पाठः, घञ् प्रत्ययान्तरूपमस्ति। मातुः पाठः इति व्यस्तप्रयोगः, समस्तप्रयोगः नास्ति, मातृपाठः इति समस्तपदं भवति। समस्तपदं कुर्मः चेत् मातृपाठः इति समस्तपदं भवति, किन्तु पृथक्तया व्यस्तप्रयोगं कृत्वा अत्र लिखितमस्ति। मातुः पाठस्य वैलक्षण्यं, वैलक्षण्यम् इत्यत्र विलक्षण इति प्रातिपदिकमस्ति, विलक्षण इति प्रातिपदिकं स्वीकृत्य शञ् इति तद्धितप्रत्ययस्य योजनेन वैलक्षण्यम् इति रूपं सिद्ध्यति। तादृशानि पदानि भवन्तः सर्वे जानन्ति एव, उदारस्य भावः औदार्यम्, उचितस्य भावः औचित्यम् इत्यादीनि पदानि वयं जानीमः एव, तानि पदानि तद्धितान्तपदानि। अत्र स्थूलाक्षरैः लिखितं वाक्यमस्ति खलु, किमर्थं पाणिनीव्याकरणस्य अध्ययनार्थं नूतना पद्धतिः आवश्यकी, किमर्थम् इयं नूतना पद्धतिः इति अस्माकम् अद्यतनविषयः। किमर्थं पाणिनीव्याकरणस्य अध्ययनार्थं नूतना पद्धतिः आवश्यकी? पूर्वमेव सिद्धान्तकौमुदी मार्गः आसीत्, किन्तु किमर्थम् एषा नूतना पद्धतिः आयोजिता, अनेन किं सौकर्यमस्ति? एकवारं पठामः। नरेश् महोदय, भवान् आरम्भं करोतु।
किमर्थं पाणिनीयव्याकरणस्य अध्ययनार्थं नूतना पद्धतिः? मातुः धातुपाठे किं नूतनम् अस्ति, अपि च किमर्थम् अस्माभिः सर्वैः अयं धातुपाठ अपेक्षितः इत्यत्र उच्यते. अस्मिन् परिचये बहवः पारिभाषिकशब्दाः सन्ति, अतः अवगमनं न भवति चेत् इमं पाठं त्यक्त्वा अग्रे पठतु. अनन्तरं यदा मातुः पाठस्य कश्चन आधारः मनसि स्थापितः तदा पुनः अत्र आगत्य पठतु. तस्मिन् समये अवगमनम् अवश्यं स्यात्. अत्र दत्तमस्ति मातुः धातुपाठं तत्र किं नूतनम् अस्ति. अत्र कानिचन नूतना पारिभाषिकशब्दाः सन्ति. यदि तत् पारिभाषिकशब्दाः अवगमनं न भवति सः वदति अग्रे पठतु. अनन्तरं यदा किञ्चित् आवश्यकं पुनः अत्र आगत पठतु, तदा अवगमनं भवति.
मुख्यविषयः कः? मातुः धातुपाठे किं नूतनमस्ति? भवतः पुरतः पुस्तकमस्ति वा, प्रक्रियानुसारी धातुपाठः इति पुस्तकम्?
आम् अस्ति.
आहत्य उपद्विसहस्रं धातवः सन्ति, तेषु उपसहस्रं धातवः, अप्राक्सिमेट्लि 1000 धातूस् आर् इन् भुवादिगणः. भुवादिगणीयधातवः आदौ दत्ताः तस्मिन् पुस्तके. भुवादिगणे ये ये धातवः विशेषधातवः सन्ति ते धातवः आदौ स्थापिताः. इत्युक्ते येषां येषां धातूनां प्रसङ्गे विशेषसूत्राणि आवश्यकानि, विशेषकार्याणि भवन्ति, तादृशविशेषधातवः प्रत्येकस्मिन् गणे आदौ स्थापिताः. तस्मात् परं सामान्यधातवः इत्युक्ते येषां कृते सामान्यसूत्राणि अपेक्षितानि, यथा सार्वधातुकार्थधातु तुकयोः अथवा पुगन्तलघुपधस्य च इत्यादीनि सूत्राणि, सामान्यसूत्राणि येषां सामान्यधातूनां कृते आवश्यकानि, ते सामान्यधातवः पश्चात् स्थापिताः. धातूनाम् आयोजनं भिन्नरीत्या अस्मिन् पुस्तके कृतमस्ति, एकवारं पुस्तकम् अवश्यं पश्यन्तु. सुन्दरमहोदय, भवान् किञ्चित् वदतु अत्र किमर्थम् इति समस्तपदमस्ति, विग्रहवाक्यं कथं वक्तव्यम्?
किमर्थम् इत्युक्ते किं किं कारणेन इति चतुर्थी विभक्त्याः अन्य रीत्या कथनम् एव किमर्थम्.
कस्मै इदम् इति विग्रहवाक्यं भवति, समस्तपदं चतुर्थी तत्पुरुष समासः अस्ति. वैलक्षण्यम् इत्यत्र प्रातिपदिकं किम् अस्ति?
प्रातिपदिकं विलक्षणस्य भावः वैलक्षण्यम्. सो वैलक्षण्यम् इत्युक्ते लक्षणम् इति पदमस्ति. विलक्षणं विगतः लक्षणः, यस्मात् सः विलक्षणं.
तथा नास्ति, विलक्षण इति प्रातिपदिकं स्वीकुर्मः. विलक्षण प्रातिपदिकं स्वीकृत्य श्यै इति प्रत्ययं योजयामः. तद्धितान्तपदेषु आदिवृद्धिः भवति इति कारणतः विलक्षण इत्यत्र इकारः अस्ति, तस्य वृद्धिः भूत्वा वैलक्षण्यम् इति रूपं भवति. एवमेव उचितस्य भावः
औचित्यम् इति भवति.
उदारस्य भावः
औदार्यम् इति भवति.
विशिष्टस्य भावः
वैशिष्ट्यम् इति भवति.
उत्तमं. पद्धतिः इति पदमस्ति, पद्धती इति दीर्घ ईकारान्तपदमपि अस्ति, जानाति वा?
पद्धति इत्युक्ते पद्धतिद्वयं, पद्धतिः पद्धती पद्धतयः.
न पद्धतिः इति पदमपि अस्ति, पद्धती इति पदमपि अस्ति. कथम् इत्युक्ते बहुशब्दः त्रिषु लिङ्गेषु सम्भवति. स्त्रीलिङ्गे वदतु.
स्त्रीलिङ्गे बह्वी इति भवति, बहुः बह्वी, बह्वी बह्व्यौ बह्व्यः इति भवति.
स्त्रीलिङ्गरूपेषु तत्र रूपद्वयं सिध्यति, न केवलं बहु इति रूपम् अस्ति, बह्वी इति रूपमपि अस्ति. इत्युक्ते तत्र रूपद्वयमस्ति इति अवगन्तव्यं. तदर्थं विशेषसूत्रमस्ति बह्वादिभ्यश्च इति सूत्रं. बह्वादिभ्यश्च इति सूत्रेण बहु इति एकं रूपं, स्त्रीलिङ्गे बह्वी इति अन्यद्रूपमपि सिध्यति. पद्धतिः, तत्र धातुः कः इति अवगन्तुं शक्यते वा? ऊहां
कर्तुं
पद् धातुः नास्ति, तत्र हन् धातुः अस्ति. हन् धातोः रूपं हतिः.
हतिः, हतिः इति स्त्रीलिङ्ग तिन् प्रत्ययस्य योजनेन हतिः इति भवति.
तस्मात् पूर्वं पद् इति रूपमपि अस्ति. उपसर्गः नास्ति. विग्रहवाक्यं पद्भ्यां हतिः, पादाभ्यां, पादाभ्यां पद्भ्यां इत्यादीनि तृतीया विभक्ति द्विवचनरूपाणि सन्ति. पादः इत्यस्य स्थाने पद् इति अपि आदेशः भवति. पद्भ्यां पादाभ्याम् इति रूपद्वयमपि अस्ति. पादाभ्यां हतिः इति वस्तुतः हन् धातोः रूपम् इति मम अवगमनमस्ति. अपि च पारिभाषिकशब्दाः इत्युक्ते
पारिभाषिकशब्दाः इत्युक्ते परिभाषा अस्ति किल, तादृश परिभाषस्य भावः पारिभाषिकः इति तद्धितपद्यं. तदपि तद्धितपद्यम् अण् प्रत्ययस्य योजनेन
अण् नास्ति, भिन्नप्रत्ययः अस्ति. तत्र स्मर्तव्यः अंशः, बहवः तद्धितप्रत्ययाः सन्ति. तद्धितप्रकरणं बृहत् प्रकरणमस्ति. अत्र तु अण् नास्ति, अत्र प्रातिपदिकमस्ति. परिभाषा, परिभाषा इति प्रातिपदिकं स्वीकृत्य विशिष्ट तद्धितप्रत्ययस्य योजनेन पारिभाषिक इति रूपं सिध्यति. अत्रापि आदिवृद्धिः भवति. त्यक्त्वा इति रूपं दत्तमस्ति, तत् कथं साधितम्?
त्यक्त्वा, ओके, त्यज् इति धातुः अस्ति. तस्य उपरि त्वान्तं त्वा प्रत्ययस्य योजनेन त्यक्त्वा इति भवति. त्यज् इति धातुः त्यक् भवति, त्यक् योगे त्वा त्यक्त्वा इति भवति.
अत्र सन्धिकार्याणि सन्ति. वस्तुतः धातुः त्यज् अस्ति. त्यज् धातुतः क्त्वा प्रत्ययस्य योजनेन आदौ जकारस्य स्थाने गकारः भवति जोहुकुः इति सूत्रेण, पश्चात् तत्र गकारस्य स्थाने ककारः आयाति खरिच सूत्रेण. सन्धिकार्यद्वयेन त्यज् इत्यस्य रूपं त्यक् भवति. क्त्वा प्रत्ययस्य अनुबन्धलोपे सति त्वा एव अवशिष्यते. ककारः इति संज्ञकः लषक्वतद्धिते इत्यनेन ककारस्य इति संज्ञा भूत्वा ककारः अपगच्छति. क्त्वा प्रत्यये त्वा अवशिष्यते. अनुबन्धलोपानन्तरं सन्धिकार्यानन्तरं त्यक्त्वा इति रूपं सिध्यति. पारिभाषिकशब्दाः इति कथनेन टेक्निकल् टर्म्स्, अपेक्षितः इत्युक्ते आकाङ्क्षितः इति अर्थः अस्ति. अनन्तरम् इति कीदृशं पदम्?
अनन्तरम्, अन्तरम् इत्युक्ते व्यवधानम् अस्ति. अनन्तरं न अनन्तरम् इति अनन्तरम् इति भवति.
न अन्तरम्, अनन्तरम्. अन्तरम् इति कथनेन व्यवधानम्. अनन्तरम् इत्युक्ते व्यवधानं विना, व्यवधानं विना नास्ति अन्तरं यस्य तत्. अनन्तरम् इत्युक्ते अन्तरं नास्ति, व्यवधानं नास्ति इति अर्थः अस्ति. अत्र आगत्य इति रूपं दत्तमस्ति. तत् कीदृशं रूपं, कथं साधनीयम्?
आगत्य, आङ् इति उपसर्वपूर्वक गम् धातोः त्वा प्रत्ययस्य योजनेन ल्यप् भवति. ल्यप् त्वा प्रत्ययं ल्यप् भवति. तदनन्तरं
उपसर्गः अस्ति इति कारणतः ल्यप् भवति.
आम्, उपसर्गकारणेन एव भवति. परन्तु ओरिजिनल् त्वा प्रत्यय एव किल, तदेव परिवर्त्यते किल?
न, उपसर्गः अस्ति. उपसर्गः अस्ति चेत् ल्यप् प्रत्ययः विहितः भवति. वदतु.
आङ् उपसर्गपूर्वक गम् धातोः ल्यप् प्रत्ययस्य योजनेन आगत्य इति रूपं सिध्यति.
अत्र धातुः गम् अस्ति किन्तु आगत्य इति रूपं सिध्यति. भवान् जानाति चेत् वदतु, नो चेत् अहं वदामि.
न जानामि भगिनि,
चिन्ता मास्तु. आ उपसर्गपूर्वक गम् धातुतः ल्यप् प्रत्ययस्य योजनेन अत्र आगत्य इति रूपं सिध्यति. वस्तुतः धातुः गम् अस्ति. गम् इति मकारान्तधातुः, अनुनासिकान्तधातुः. अतः एकेन विशिष्टसूत्रेण अत्र अनुनासिकलोपः विकल्पेन भवति. अन्येषु धातुषु अनुनासिकवर्णस्य लोपः नित्यरूपेण भवति, किन्तु मकारान्तधातूनां प्रसङ्गे वाल्यपि इति एकं सूत्रमस्ति. वाल्यपि इति विशेषसूत्रेण विशेषतया मकारान्तधातूनां प्रसङ्गे मकारलोपः, अनुनासिकवर्णस्य लोपः विकल्पेन भवति. एकस्मिन् पक्षे मकारलोपः भवति, अन्यस्मिन् पक्षे मकारलोपः न भवति. अतः रूपद्वयं सिध्यति. यस्मिन् पक्षे मकारलोपः भवति तस्मिन् पक्षे तुक् आगमः अपि भवति. तुक् आगमः भवति चेत् अत्र तकारः आयाति. यस्मिन् पक्षे मकारलोपः भवति तस्मिन् पक्षे एव तुक् आगमः भूत्वा आगत्य इति रूपं सिध्यति. यस्मिन् पक्षे मकारलोपः न भवति तदा आगम्य इति रूपं सिध्यति. आगत्यरूपमपि साधु, आगम्य रूपमपि साधु एव. अवगमनं भवान् वदतु.
अवगमनं अव इति उपसर्गपूर्वक गम् धातोः ल्युडन्तप्रत्ययस्य योजनेन अवगमनम् इति रूपं सिध्यति.
अवगमनं योगः अवश्यम् इत्यत्र सन्धिकार्यं भवति वा?
अवश्यम् इत्युक्ते न, अवश्यम् इत्युक्ते अन्यत् किल, न वश्यम्.
न, अवगमनं योगः अवश्यम्, द्वयोर्मध्ये सन्धिकार्यं भवितुम् अर्हति वा?
अवगमनं इत्युक्ते तत्र सन्धिकार्यं नास्ति. अव पूर्वक तत्र सन्धिकार्यं नास्ति. अवश्यम् इत्युक्ते तत्र सन्धिकार्यं.
मम प्रश्नः तु अवगमनं योगः अवश्यम् इत्यत्र सन्धिकार्यं न भवति. किमर्थं चेत् उत्तरपदस्य आदिमवर्णः अचुवर्णः अस्ति. उत्तरपदस्य आदिमवर्णः हल् वर्णः अस्ति चेत् अत्र अनुस्वारसन्धिकार्यं भवितुं शक्नोति. किन्तु उत्तरपदस्य आदिमवर्णः अकारः अस्ति, हल् वर्णः नास्ति. इत्यतः अत्र केवलं वर्णमेलनमेव भवति. तेन अवगमनम् अवश्यम् इति रूपमेव सिध्यति. किन्तु अवश्यं योगः स्यात् इत्यत्र सन्धिकार्यमस्ति. भवान् वदतु.
अवश्यं योगः स्यात्. अवश्यम् इत्युक्ते तत्र अनुस्वारसन्धिः आगच्छति. अवश्यम् अवश्यं योगे स्यात्, अवश्यं स्यात् इति भवति.
अवश्यं योगः स्यात् इत्यत्र उत्तरपदस्य आदिमवर्णः सकारः अस्ति, सकारः हल् प्रत्याहारः अस्ति. अवश्यम् इत्यत्र अन्तिमवर्णः मकारः अस्ति, पदान्तमकारः अस्ति, परे हल् वर्णः अस्ति चेत् मोनुस्वारः इति सूत्रेण पदान्तमकारस्य स्थाने अनुस्वारादेशः भवति. अतः अत्र अनुस्वारसहितं रूपं दृश्यते. इत्युक्ते अत्र सन्धिकार्यं कृत्वा लिखितम् अस्ति. पदान्तमकारे परे हल् वर्णः अस्ति चेत् मोनुस्वारः सूत्रेण मकारस्य स्थाने अनुस्वारादेशः भवति इति मोनुस्वारः सूत्रेण उच्यते. अत्र सन्धिकार्यं कृत्वा लिखितमस्ति. अवगमनं योगः अवश्यं, तत्र केवलं वर्णमेलनमेव भवति. परिचयः इति पदमस्ति, तत्र धातुः कः?
परियोग ची धातुः अस्ति. परियोगे ची धातोः चयः घञ् प्रत्ययस्य योजनेन.
घञ् नास्ति, अच् प्रत्ययः, एरच् एरच् सूत्रेण अच् प्रत्ययः विहितः भवति. परि उपसर्गपूर्वक ची धातुतः अच् प्रत्ययस्य योजनेन परिचयः इति कृदन्तरूपं सिध्यति. अस्मिन् करपत्रे एव एरच् इति सूत्रमपि उक्तमस्ति. अधोभागे एरच् सूत्रम् इत्युक्ते इकारान्तधातूनां प्रसङ्गे तत् सूत्रं कार्यं करोति. ची धातुतः चयः, जी धातुतः जयः, क्षी धातुतः क्षयः इत्यादीनि रूपाणि साधयितुं शक्नुमः. इतोपि अन्यत् नूतनं पदम् अस्ति, स्थापितः. तत् कीदृशं पदम्?
स्था इति धातुः अस्ति. स्था इति धातुः अस्ति. तत्र इडागमः भूत्वा त प्रत्ययस्य योजनेन इडागमः भूत्वा स्थापितः इति रूपं सिध्यति. सकारः आगच्छति तत्र.
स्थापितः इति पदं क्ताप्रत्ययान्तरूपमस्ति, क्तान्तरूपमस्ति. वस्तुतः धातुः स्था धातुः अस्ति. स्था धातोः परं निच् प्रत्ययस्य योजनेन स्थापि इति नूतनधातोः निर्माणं भवति. स्थापितः, स्थापितं, स्थापितवान् इत्यादीनि रूपाणि णिजन्तयुक्तरूपाणि. तत्र णिच् प्रत्ययः अपि अस्ति. स्थापि इति नूतनधातुतः क्ताप्रत्ययस्य योजनेन स्थापितः इति रूपं सिध्यति. अत्र णिच् अस्ति, णिजन्तयुक्तं क्तान्तरूपम् इदं. किन्तु णिच् नास्ति चेत् किं रूपं सिध्यति?
स्थायोगे प्रत्ययस्य
तिष्ठति इति लटीरूपम् अस्ति. किन्तु अत्र णिच् नास्ति चेत् स्थितः, स्थितम् इत्यादीनि रूपाणि भवन्ति. इत्युक्ते णिच् अस्ति चेत् स्थापितः, स्थापितम् इत्यादीनि रूपाणि सिध्यन्ति. स्थाधातुतः, स्थाधातुतः अणिजन्तरूपम्, अणिच् नास्ति चेत् स्थितं, स्थितः इत्यादीनि रूपाणि साधयितुं शक्नुमः. स्यात् इत्यत्र धातुः कः?
विधिलिङ्गरूपम् अस् धातोः विधिलिङ्गरूपं स्यात् इति भवति.
अस् धातुः कस्मिन् गणे अस्ति?
अस् धातुः ऐ थिङ्क् सेकेण्ड् द्वितीयगणे अस्ति.
अदादिगणे अस्ति. बहु सम्यक् महोदय. इदानीं सत्यभामा भगिनी भवती पठतु, अग्रिमे परिच्छेदे किं दत्तमस्ति?
मातुः धातुपाठः पाणिनेः धातुपाठः एव. वैयाकरणसिद्धान्तकौमुदी अपि तथा, पाणिनेः धातुपाठः. तर्हि मातुः पाणिनीयधातुपाठः वैयाकरणसिद्धान्तकौमुदी चेत् अनयोः कः भेदः? यथा उक्तं द्वयोः विवरणं तदेव पाणिनेः धातुपाठः. अतः विवरणदृष्ट्या भेदः नास्ति. उत्तरं प्राप्यते पाठ्यक्रमे येन क्रमेण सर्वं विवरणं दत्तं तत्र महान् भेदः. कस्मिंश्चित् ज्ञानक्षेत्रे वह्निः सूचना अस्ति चेत्
अत्र किं पदं दत्तमस्ति? बह्वी,
क्षम्यता, वह्निः इति पठितवती. बह्वी सूचना अस्ति चेत् तर्हि तस्मिन् क्षेत्रे पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा. यतः सूचना तु अस्ति, परन्तु विद्यार्थिनः आत्मसात् न कर्तुं पारयन्ति चेत् सूचनया किं मूल्यम्? इत्युक्ते अत्र पाणिनीयधातुपाठम् आधारीकृत्य एव वैयाकरणसिद्धान्तकौमुदी अपि च मातु पुष्पादीक्षितमहोदयस्य धातुपाठः उभयमपि आयोजितम्. अतः तयोः मध्ये कः भेदः इति प्रश्ने सति. अत्र विवरण यदा पश्यामः चेत् तयोः मध्ये महान् भेदः वर्तते. तदनन्तरं किमुच्यते? कस्मिंश्चित् ज्ञानक्षेत्रे, तत् किम् इति न अवगतं. ज्ञानक्षेत्रे बह्वी सूचना अस्ति चेत् तत्र महान् पठनस्य मुख्यत्वं, महत्त्वपूर्णता अस्ति, परन्तु सूचना तु अस्ति, विद्यार्थिनः आत्मसात् न कर्तुं पारयन्ति चेत् सूचनया किं मूल्यम्? इत्युक्ते यद्यपि अत्र सूचना कथं करणीयम् इति वर्तते, परन्तु अस्माकं बोधः न जायते चेत् अनया सूचनया कः प्रयोजनं? कोऽपि लाभः नास्ति इति अत्र उक्तम्.
साधु. नरसिंहहेग्डे महोदय, भवान् वदतु, अस्मिन् परिच्छेदे किम् उक्तमस्ति?
अस्मिन् परिच्छेदे मातुः धातुपाठः पाणिनेः धातुपाठः एव. इत्युक्ते तत्र किमपि भेदविशेषं नास्ति. पाणिनेः पद्धत्य पाणिनेः धातुपाठः, अनन्तरं मातुधातुपाठः. वैयाकरणसिद्धान्तकौमुदेपि तद् तावदेव, तथा एव पाणिनेः धातुपाठः एव. तर्हि पाणिनिधातुपाठः वैयाकरणसिद्धान्तकौमुदी चेतनया भेदः कः इति तत्र भेदः किं भवति इति कृत्वा समानं पाठ एव अस्ति चेत् तत्र भेदः कः इति प्रश्नः. यथा उक्तं द्वयोः विवरणं तदेव पाणिनीयधातुपाठ, अतः विवरणदृष्ट्या भेदो नास्ति. तत्र विवरणविषये तत्र भेदः नास्ति, परन्तु पाठ्यक्रमः यत् अस्ति तत्र भेदः अस्ति. येन क्रमेण सर्वं विवरणं दत्तं तत्र महान् भेदः अस्ति सिद्धान्तकौमुदी अनन्तरं मातृपाठस्य क्रमे. कस्मिंश्चित् ज्ञानक्षेत्रम् अस्ति इति चिन्तयामः तर्हि तत्र बहूनि सूचनाः अपि सन्ति, परन्तु तत्र यदि छात्रः तत् स्मरणं न कुर्वन्ति कर्तुं शक्नोति चेत् तत्र लाभः न भवति. अतः सिद्धान्तकौमुदी तथा एव तत्र सूचना बहूनि सन्ति, परन्तु छात्राणां कृते बहु कष्टदायकमस्ति तत् स्मरणस्य कृते. परन्तु मातुः तादृशं विवरितमस्ति तत्र मातुः पाठक्रमः, तत्र छात्राणां कृते सुलभाय भवति, स्मरणे अपि सुलभाय भवति.
अर्थः वा अत्र सोपानेन अस्ति मातुः पाठयति
सोपाने तत्र मुख्यतः कथं मातुः पाठक्रमः अस्ति इति अग्रे दत्तमस्ति. तत्र स्तरत्रयमस्ति, तत्र धातुस्तरे लकार क्रमस्य स्तरे अनन्तप्रक्रियास्तरे. तत्र तादृशकरणेन तत्र छात्राणां कृते सुलभं भवति इति अस्ति तत्र महोदय.
उत्तमं. मातुः धातुपाठः अपि च वैयाकरणसिद्धान्तकौमुदी धातुपाठः द्वयोर्मध्ये कुत्र भेदः अस्ति? द्वयमपि पाणिनेः धातुपाठस्य आधारेण एव निर्मितमस्ति द्वयमपि, किन्तु तत्र भेदः अस्ति. कुत्र भेदः अस्ति? द्वयोः विवरणं समानं, पाणिनेः धातुपाठः एव मातुः धातुपाठे अपि अस्ति. वैयाकरणसिद्धान्तकौमुदी मार्गेण पठामश्चेदपि तमेव पाठं पठामः, किन्तु पाठ्यक्रमे भेदः अस्ति. येन क्रमेण सर्वं विवरणं दत्तमस्ति तत्र महान् भेदः अस्ति. येन क्रमेण धातवः आयोजिताः तत्र भेदः अस्ति. तदर्थमेव प्रक्रियानुसारी धातुपाठः द्रष्टव्यः. मातृभिः लिखितं पुस्तकमस्ति, तस्मिन् पुस्तके धातूनाम् आयोजनं भिन्नरीत्या कृतम् अस्ति. त्रिषु स्तरेषु भेदः दृश्यते. मातृभिः निर्मितं विधानमस्ति, मातृभिः लिखिता पाठनशैली अस्ति, तस्मिन् त्रिषु स्थलेषु भेदः दृश्यते. प्रथमस्तरे इत्युक्ते धातूनाम् आयोजनक्रमे भेदः अस्ति, लकारक्रमस्य स्तरे भेदः अस्ति, प्रक्रियास्तरे भेदः अस्ति. इत्युक्ते उपद्विसहस्रं धातवः भिन्नरीत्या अस्मिन् पुस्तके आयोजिताः सन्ति. अष्टाध्यायीग्रन्थे सूत्राणि यादृशरीत्या सन्ति तेषां सर्वेषां सूत्राणाम् अवगमनमस्ति मातुः मनसि, तेषां सूत्राणाम् अवगमनम् अस्ति इति कारणतः सर्वाणि सूत्राणि दृष्ट्वा धातूनाम् आयोजनं कृतवती सा. लकारक्रमस्तरे अपि भेदः अस्ति. लकारक्रमः इत्युक्ते वयं पूर्वं पठितवन्तः खलु, लकाराणां विभजनं कृतवती माताजि, सार्वधातुकलकाराः, आर्धधातुकलकाराः एवं विभजनं कृतवती. किन्तु वैयाकरणसिद्धान्तकौमुदी मार्गे तादृशलकारविभजनं नास्ति. वैयाकरणसिद्धान्तकौमुदी ग्रन्थे वर्णमालाक्रमेण धातूनां रूपाणि द्रष्टुं शक्नुमः. वर्णमालाक्रमेण सिद्धान्तकौमुद्यां धातूनां दशलकाराणां रूपाणि एकत्र द्रष्टुं शक्नुमः, किन्तु तेन कोऽपि लाभः नास्ति. वयं तथा साधयितुं न शक्नुमः, अस्माकं कृते कार्यं सुलभं न भवति तथा पठामश्चेत्. इत्युक्ते तत्र आदौ लट्लकाररूपाणि दीयन्ते, पश्चात् लिट् लकाररूपाणि, पश्चात् लुट् लकाररूपाणि, तस्मात् परं रुट् लकाररूपाणि, एवं वर्णमालाक्रमेण सर्वाणि रूपाणि एकत्र एव द्रष्टुं शक्नुमः. इत्युक्तौ किञ्चित् सौलभ्यमस्ति, किन्तु यदि वयं तादृशानि रूपाणि साधयितुमिच्छामश्चेत् तत्र काठिन्यमस्ति. अतः माताजि लकाराणां विभजनं कृतवती, तस्मिन् स्तरे अपि भेदः अस्ति. प्रक्रियास्तरे इति कथनेन माताजी प्रक्रिया द्विधा उक्तवती. इत्युक्ते केवलं प्रक्रिया द्विधा एव भवति, अर्धधातुकप्रक्रिया सार्वधातुकप्रक्रिया इत्युक्ते सार्वधातुकप्रक्रियाम् उपयुज्य सर्वाणि सार्वधातुकतिङन्तानि सर्वाणि सार्वधातुककृदन्तानि साधयितुं शक्नुमः एवमेव अर्धधातुकप्रक्रियाम् उपयुज्य अर्धधातुकतिङन्तानि अर्धधातुककृदन्तरूपाणि साधयितुं शक्नुमः तथा प्रक्रियास्तरे अपि भेदः अस्ति तदर्थमेव इदं वाक्यं मुख्यमस्ति येन क्रमेण सर्वं विवरणं दत्तमस्ति तत्र महान् भेदः अपि च कस्मिंश्चित् इत्यत्रापि बहूनि सन्धिकार्याणि सन्ति सत्त्वसन्धिकार्याणि भवन्ति कस्मिंश्चित् इत्यत्र कस्मिन् योगः चित् इति पदविच्छेदं कुर्मः चेत् कस्मिन् योगः चित् तत्र रूपद्वयं सिध्यति एकम् अनुस्वारसहितं रूपम् अन्यत् चन्द्रबिन्दुसहितरूपम् कस्मिंश्चित् ज्ञानक्षेत्रे व्याकरणमित्युक्ते ज्ञानक्षेत्रं ज्ञानक्षेत्रे बह्वी सूचना अस्ति अष्टाध्यायीग्रन्थे सूत्राणि लघु सन्ति प्रत्येकस्मिन् सूत्रे लघु अक्षराणि भवन्ति अल्पाक्षरम् असन्दिग्धम् इति लिखितमस्ति खलु सूत्रलक्षणं ज्ञानक्षेत्रे बह्वी सूचना अस्ति चेत् पाठनस्य पद्धतिः अत्यन्तमहत्त्वपूर्णा स्यात् नो चेत् वयम् अवगन्तुं न शक्नुमः कौमुदी इति पदमस्ति खलु तत्पदं कुमुद इति प्रातिपदिकात् निर्मितं पदं कुमुदस्य इयं कौमुदी तत्र नीप्रत्ययः अपि स्त्रीप्रत्ययः अपि अस्ति कुमुदस्य इयम् आदौ कौमुदा भवति पश्चात् नीप्रत्ययस्य योजनेन कौमुदी वैयाकरणः इति पदमपि तद्धितान्तं पदमेव व्याकरण इति स्वीकृत्य तस्मात् निर्मितं पदं वैयाकरणः यः व्याकरणं वेत्ति सः वैयाकरणः कौमुदी इत्यस्य अर्थः शशिना सह याति कौमुदी सत्यभामा भगिनी भवती वदतु कौमुदी इत्युक्ते
कौमुदी शशिना सह याति इति इदानीं भवत्या उक्तम् इत्युक्ते चन्द्रेण सह यः याति रोहिणी इति अर्थः वा
रोहिणी इति नास्ति कौमुदी इत्युक्ते कोऽपि वदतु कौमुदी इत्युक्ते अर्थः कः
कुमुदस्य भावः इति अर्थः वा
कुमुदस्य भावः नास्ति कुमुदस्य इयं कौमुदी इति भवति स्त्रीलिङ्गपदं खलु
चन्द्रस्य किरणः चन्द्रिका अस्ति किल तद् चन्द्रकला इति उच्यते
चन्द्रकला इति कथनेन भिन्नार्थः अत्र आत्मसात् कर्तुं नापारयन्ति इति लिखितमस्ति आत्मसात् अव्ययपदमस्ति आत्मसात् इति भवन्तः सर्वे श्रुतवन्तः खलु गीतायाम् एकं पदमस्ति भस्मसात् कुरुते अर्जुन यथा अग्निः काष्ठानि भस्मसात् करोति यथा अग्निः काष्ठानि भस्मसात् करोति तथा एव ज्ञानाग्निः सर्वाणि कर्माणि भस्मसात् करोति भस्मसात् इति कथनेन भस्ममयम् भस्ममयानि इति अर्थः अस्ति अत्र आत्मसात् इति कथनेन साकल्येन सम्पूर्णरीत्या व्याकरणम् अस्माकम् आधीने भवति यद्यपि सिद्धान्तकौमुद्यां सूचनाः सन्ति तथापि विद्यार्थिनः आत्मसात् कर्तुं नापारयन्ति चेत् सूचनायाः किं मूल्यमस्ति तत्र सूचनायाः प्रयोजनं किम् अस्ति इत्युक्ते ये छात्राः वैयाकरणसिद्धान्तकौमुदी मार्गेण संस्कृतव्याकरणं पठन्ति तेषां मनसि सुदृढं ज्ञानं न प्राप्यते किमर्थं चेत् तेन मार्गेण पठनेन काठिन्यमस्ति इति माताजी अवगतवती अतः इयं नूतना पद्धतिः वदतु
भस्म आत्मसात् इत्यत्र मयट् प्रत्ययः नास्ति कः प्रत्ययः अस्ति
भस्ममयम् इत्यत्र मयट् प्रत्ययः अस्ति किन्तु भस्मसात् इति कथनेन तस्य अर्थः तु भस्ममयानि तस्मिन् श्लोके एव उक्तमस्ति काष्ठानि भस्ममयानि भवन्ति अग्निना
श्लोकस्य अर्थः अवगतं परन्तु अत्र प्रत्ययः कः इति न ज्ञातं
भस्मसात् इति पदम् अव्ययपदम् अस्ति अव्ययं भवति ज्ञानं हृदयङ्गमं न भवति विषयः हृदयङ्गमः न भवति इत्युक्ते आत्मसात् न भवति विद्यार्थिनः विषयम् आत्मसात् कर्तुं न पारयन्ति विषयः तस्य अधीनः न भवति इति वक्तुं शक्यते वा दे केनाट् गेट् कण्ट्रोल् आफ् द सब्जेक्ट् इति मम अवगमनमस्ति. अपि च अत्र बह्वी इति पदं दत्तमस्ति. बहु इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः. पुंलिङ्गे बहुः, नपुंसकलिङ्गे बहु, स्त्रीलिङ्गे रूपद्वयं सिद्ध्यति. बहु इति रूपमपि अस्ति, बह्वी इति रूपम् अस्ति. विकल्पेन तत्र रूपद्वयं सिद्ध्यति स्त्रीलिङ्गे. तदर्थमेव सूत्रमस्ति बह्वादिभ्यश्च इति सूत्रं. तेन सूत्रेण नीष् प्रत्ययः विहितः भवति चेत् बह्वी दीर्घ ईकारान्तपदं सिद्ध्यति. पाठनस्य पद्धतिः अपि महत्त्वपूर्णा स्यात्. अस्मिन् परिच्छेदे प्राप्यते इति पदमस्ति. सत्यभामा भगिनी, तत् कीदृशं रूपं वदतु?
तदपि अव्ययं.
प्राप्यते, उत्तरं प्राप्यते
इत्युक्ते तत् आत्मनेपथ्यरूपं.
पूर्णतया वदतु महोदय, प्राप्यते, साधयतु.
प्राप्यते प्राप्योगे यक् प्रत्ययस्य कर्मणि प्रयोगे यक् प्रत्ययः आगच्छति. तत्र प्राप्योगे यक् योगे आत्मनेपदीरूपं प्राप्यते इति भवति. यक् प्रत्ययस्य योजनेन कित् यक् प्रत्ययः कित् प्रत्ययः अस्ति इति कारणेन आद्यन्तौ टकितौ इत्यपि सूत्रं तत्र कार्यं करोति. सो प्राप्योगे य आत्मनेपदीरूपं तङ्गानौ आत्मनेपदम्.
चिन्ता मास्तु महोदय, अत्र प्राप्यते इति रूपम् अस्ति. प्रा उपसर्गपूर्वकः आप् धातुः अस्ति. इदं रूपं कर्मणि लट् रूपम् अस्ति. यथा कर्तरिप्रयोगे दशलकाराः सन्ति तथा एव कर्मणि प्रयोगे अपि दशलकाराः सन्ति. प्राप्यते इति रूपं कर्मणि लट् रूपम् अस्ति. अत्र कर्मणि प्रयोगे सार्वधातुके यक् इति सूत्रेण यक् इति विशिष्टप्रत्ययः आयाति. तत्रापि यक् प्रत्ययः सार्वधातुकलकारेषु एव, लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु एव यक् प्रत्ययः आयाति इति मुख्यविषयः. लट् लकारः सार्वधातुकलकारः, कर्मणि प्रयोगे लट् लकारप्रसङ्गे सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः आयाति. यक् इत्यत्र ककारः इति संज्ञकः कित्वम् अस्ति इति कारणतः आद्यन्तौ टकितौ इति परिभाषासूत्रेण यक् इति आगमः, यक् आगमः कित् अस्ति खलु, कित् आगमाः अङ्गस्य अन्ते आयान्ति. अत्र धातुः आप् अस्ति खलु, आप् धातोः अन्ते अयं कित् आगमः भवति. यक् आगमः कित् अस्ति खलु, अतः कित् आगमाः अन्ते आयान्ति. टित् आगमाः आदौ आयान्ति. मित् आगमाः अन्तिमाच्युवर्णस्य अनन्तरम् आयान्ति मेधचोन्त्यात् परः सूत्रेण. किन्तु आद्यन्तौ टकितौ सूत्रेण यक् प्रत्ययः अङ्गस्य अन्ते, अत्र अङ्गमस्ति धातुः, धातोः अन्ते या आयाति. यक् इत्यत्र केवलं ककारः एव इति संज्ञकः, यकारोत्तरवर्ती अकारः अपि अस्ति. प्रायोगः आप् योगः या इति स्थितिः अस्ति. अपि च अन्येन विशिष्टसूत्रेण भावकर्मणोः इति विशिष्टं सूत्रमस्ति. तेन सूत्रेण भावे प्रयोगे कर्मणि प्रयोगे आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति इति तेन सूत्रेण उच्यते. भावकर्मणोः सूत्रेण अत्र आत्मनेपदसंज्ञकप्रत्ययः आयाति, अतः प्राप्याते इति रूपम् अस्ति. आहत्य प्र उपसर्गः आप् धातुः, यक् इति प्रत्ययात् या आगतः, अपि च कर्मणि प्रयोगे आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति भावकर्मणोः इति सूत्रेण आयान्ति, अतः प्राप्यते इति रूपम् अस्ति. इदं रूपं कर्मणि लट् रूपम्. महोदय भवान् वदतु, कर्तरि लट् रूपं किम् अस्ति? सुन्दर महोदय,
कर्तरि लट् रूपं प्राप्नोति इति भवति. प्र इति उपसर्गपूर्वक आप् धातोः परस्मैपदी रूपं प्राप्नोति इति रूपं सिद्ध्यति.
अयं धातुः स्वादिगणे अस्ति, रूपं साधयतु.
स्वादिगणे अस्ति इति ओके. आप् आप् योगे श्नम् प्रत्ययः आगच्छति.
श्नु
इति प्रत्ययः आगच्छति. ओके, सो शकारः लशक्वत् इति सूत्रेण शकारः इत्संज्ञा भूत्वा लोपः भवति. श्नु प्रत्ययः षित् प्रत्ययः. नु इति भवति. आप् योगे नु योगे तिप् भवति. एतत् आप्नु प्रथमम् आप् अत्र गुणः भवितुं न अर्हति किमर्थं चेत् सार्वधातुकम् अपित् इति सूत्रेण अपित् प्रत्ययः गुणः भवितुं न अर्हति इति कारणेन आप् योगे नु योगे तिप् प्रथमम् आप्नु वर्णमेलने आप्नु भवति आप्नु योगे तिप् तिप् प्रत्ययः तिंशित् तिङ् प्रत्ययः अपि अस्ति एवं पित् अपि पित् प्रत्ययः अपि अस्ति तिप् प्रत्ययः इति कारणेन तत्र अधुना गुणः भवितुम् अर्हति एवम् आप्नु आप्नु इति इगन्तम् अङ्गम् अस्ति इति कारणेन तत्र प्रसक्तिः गुणस्य प्रसक्तिः अपि अस्ति प्राप्तिः अपि भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र आप्नोति इति अन्तिमं रूपं सिद्ध्यति गुणसहितं रूपम्।
बहु सम्यक् महोदय। अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण टिप् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति। अयं धातुः स्वादिगणे अस्ति, लट्लकाररूपं साधयामः, लट्लकारः सार्वधातुकलकारः, अतः गणचिन्तनम् अवश्यं करणीयं। धातुः स्वादिगणे अस्ति, अपि च शपं प्रबाध्य श्नु इति विकरणप्रत्ययः, स्वादिभ्यः श्नुः इति सूत्रेण श्नु विकरणप्रत्ययः आयाति। श्नु प्रत्यये शित्वमेव अस्ति, पित्वं नास्ति, अपि च आप् इति इगन्तमङ्गं नास्ति खलु, तत्र गुणकार्यं भवितुं न अर्हति एव। केवलं वर्णमेलनं आप्नु इति अङ्गं भवति, आप्नु इति अङ्गं तिप् प्रत्ययस्य कृते भवति। पश्चात् तिप् प्रत्ययं निमित्तीकृत्य आप्नु इति इगन्तम् अङ्गं तस्मिन् गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः सूत्रेण, तेन आप्नोति। प्रा उपसर्गपूर्वकः अस्ति इत्यतः प्राप्नोति इति रूपं भवति। मूल इति प्रातिपदिकात् मूल्यम् इति रूपं साधितं। चेत्यनयोः इति रूपम् अस्ति। महोदय भवान् एव वदतु, सन्धिकार्याणि वदतु। चेत्यनयोः
च इति अनयोः त्रीणि पदानि सन्ति अत्र। च योगे इति गुणसन्धिः भूत्वा चेति इति भवति। तदनन्तरं चेति योगे अनयोः अत्र यण् सन्धिः भूत्वा चेत्यनयोः यकारः आगच्छति। चेत्यनयोः इति सन्धिद्वयं भूत्वा चेत्यनयोः इति पदं सिद्ध्यति।
अत्र आदौ गुणसन्धिकार्यं भवति, पश्चात् यण् सन्धिकार्यं भवति। तेन चेत्यनयोः च योगः इति चेति, चेति योगः अनयोः, चेत्यनयोः इति रूपं भवति। तत्र यण् सन्धिकार्यम् अस्ति। आहत्य अत्र वार्ताक द्वयोः पद्धत्योः तारतम्यं किम् अस्ति, द्वयोः पद्धत्योः कः भेदः इति प्रश्ने सति। मातुः पाठः अपि अष्टाध्यायी आधारितः एव, वैयाकरणसिद्धान्तकौमुदी धातुपाठः अपि पाणिनिना विरचित अष्टाध्यायीग्रन्थस्य आधारेण एव निर्मितः पाठः। द्वयोर्मध्ये भेदः कुत्र अस्ति? तत्र विषयः तु समानः एव, किन्तु पठनपाठनशैल्यां, धातूनाम् आयोजनप्रसङ्गे, अन्येषु त्रिषु स्तरेषु भेदः दृश्यते। सिद्धान्तकौमुदीशैल्यां किञ्चित् इतोपि काठिन्यमस्ति, किन्तु मातुः शैल्या पठनेन तत्र सौलभ्यमस्ति। किमर्थं चेत् मातुः शैल्यां तर्कः अस्ति, लाजिकल् थिङ्किङ्ग् अस्ति, अपि च अष्टाध्यायीसूत्राणाम् आधारेण माताजी धातूनां विभजनं कृतवती, लकाराणां विभजनं कृतवती, अपि च प्रक्रिया अपि भिन्नरीत्या उपस्थापितवती, अर्धधातुकप्रक्रिया, सार्वधातुकप्रक्रिया, तावदेव। तत्र किञ्चित् सौलभ्यम् अस्ति। महोदय भवान् वदतु, विद्यार्थी इत्यत्र प्रातिपदिकं किम्?
प्रातिपदिकं विद्या इति
विद्यार्थी इति पुंलिङ्गशब्दः,
पुल्लिङ्गशब्दः, ओके। नकार विद्यार्थिन् नकारयुक्तं पदम् अस्ति।
उत्तमं। नकारात् प्रातिपदिकम् अस्ति, विद्यार्थिन् इति प्रातिपदिकम् अस्ति। विद्यार्थिन् प्रातिपदिकं स्वीकृत्य पुंलिङ्गे विद्यार्थी भवति, स्त्रीलिङ्गे विद्यार्थिनी भवति। विद्यार्थी विद्यार्थिनौ विद्यार्थिनः एवं रूपाणि वक्तव्यानि. पद्धतिः इत्युक्ते शैली. नीलं भगिनी भवती पठतु अग्रे.
प्रत्येकस्मिन् स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः. प्रथमं 2000 धातूनां क्रमस्य स्तरे, द्वितीयं लकारक्रमस्य स्तरे, प्रक्रियास्तरे. एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः. पाणिनीयसूत्राणां शक्तिः एतादृशी यत् लघुस्थाने सूचना अधिका, लघ्वीकरणम् इति. मातुः पाठनमार्गः अपि तथा. धातुपाठं सम्यक्तया बोधितुं कियान् समयः अपेक्षितः इति किञ्चन महत् तत्त्वम्. सिद्धान्तकौमुद्याः मार्गः दीर्घः. मातुः धातुपाठस्य मार्गः ह्रस्वः. कारणं किम्? मातुः क्रमे तर्कः विधीयते. सर्वम् आयोजितं सूत्रानुगुणं. सिद्धान्तकौमुदी न तथा. कथमिति अग्रे पश्येम. अत्र लिखितमस्ति मातुः पाठ्यक्रमः यः वयं सर्वे पठामः तत्र सूत्राणि अवलम्ब्य समायोजितः. इत्युक्ते पाणिनिः सूत्राधारेण एव तत्र सर्वं समायोजितः. प्रथमे तत्र धातुपाठे ये 2000 धातु विशिष्टधातुक्रमः मातुः तत्र माताद्वारा तत्र दत्तं धातूनां क्रमस्य स्तरे. सो तत्र विशिष्ट 2000 एकं क्रमः वर्तते. अनन्तरं तत्र लकारस्य क्रमः अपि वयं पूर्वे अपि दृष्टवन्तः. चत्वारि अपि च षट् लकारः, अर्धधातुक लकारः, चत्वारि लकारः, सार्वधातुक लकारः, तत्र तादृशः तत्र सार्वधातुक इति तत्र क्रमः वर्तते. अतः लकारक्रमेण अपि तत्र माताजी तत्र पाठ्यक्रमः तत्र स्थापितः. अनन्तरं प्रक्रियास्तरे. प्रक्रियास्तरे इत्युक्ते तत्र सार्वधातुकप्रक्रिया, अर्धधातुकप्रक्रिया इति अहं चिन्तयामि. तत्र तस्य तम् आधारीकृत्य अपि तत्र पाठ्यक्रमः स्थापितः. सो एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः. एतत् सर्वं सूत्राधारीकृत्य एव तत्र माताजी स्थापिताः. पाणिनीयसूत्राणां शक्तिः एतादृशी यत् लघुस्थाने सूचना अधिकाः, लघ्वीकरणम् इति. वयं दृष्टवन्तः तत्र यः पाणिनि व्याकरणस्य तत्र यः पाणिनिमहर्षियस्य आशयः अस्ति ग्रन्थं लघ्वी भवेत् इति तत्र, अपि च सूत्रं लघु भवेत् इति तस्य आशयः. अतः अत्रापि माताजी तथैव कृतं. मातुः पाठनमार्गः अपि तथा इति लिखितं. धातुपाठं सम्यक्तया बोधितुं कियान् समयः अपेक्षितः इति किञ्चन महत् तत्त्वम्. इत्युक्ते तत्र 2000 तत्र सन्ति. तेषां इफ् यु रिमेम्बर् सम्यक्तया बोधितुं कियान् समयः अपेक्षितः. इट् टेक्स् अ लाङ्ग् टैम् इति किञ्चन महत्त्वतत्त्वम्. सिद्धान्तकौमुद्याः मार्गः दीर्घः. वयं दृष्टवन्तः सिद्धान्तकौमुदी इति वयं तत्र आत्मसात् न कर्तुं शक्नुमः. किमर्थं चेत् तत्र यः प्रक्रिया दत्तं सः दीर्घप्रक्रिया अस्ति. तत्र लाजिकल् इति तु न वदामः, लाजिकल् अस्ति, परन्तु मार्गः दीर्घः अस्ति. तत्र मातुधातुपाठस्य मार्गः ह्रस्वः. कारणं किं? मातुः क्रमे तर्कः विधीयते. अस्तु, तत्र वयं पूर्वे अपि दृष्टवन्तः तत्र अन्तिम तत्र आकारान्त, ईकारान्त, तत्र इगन्तदातवः इति तत्र क्रमः दत्तम्. अतः तत्र किञ्चित् विशिष्टतर्कः विधीयते मातुः पाठे. सर्वम् आयोजितं सूत्रानुगुणं इति तत्र अतः तत्र विशिष्टसूत्र सूत्राणां तत्र यः आवश्यकता भवति तदपि मातुः तत्र तेन तर्केण तत् सर्वं दत्तं परन्तु सिद्धान्तकौमुदी इति ग्रन्थे तथा नास्ति इति अग्रे अपि तत्र सर्वं दत्तं कथम् इति तत्र भेदः जायते इति अग्रे अपि लिखितमस्ति.
साधु भगिनि बहु उत्तमरीत्या उक्तवती. प्रत्येकस्मिन् इति एकं पदमस्ति, तत् समस्तपदमस्ति. एकम् एकं प्रति तस्मिन् इति विग्रहवाक्यं वक्तव्यमस्ति. एकम् एकं प्रति तस्मिन् इति विग्रहवाक्यं, तत्र प्रत्येकं रूपमपि साधु, प्रत्येकस्मिन् रूपमपि साधु. तदर्थमपि एकं सूत्रमस्ति, तृतीया सप्तम्योर्बहुलम् इति सूत्रमस्ति. व्याकरणे बहुलम् इति कथनेन विकल्पेन रूपद्वयम् इति अपि कथयितुं शक्यते. बहुलम् इति शब्दस्य बहवः अर्थाः सन्ति संस्कृतव्याकरणे. तेन सूत्रेण अत्र रूपद्वयं सिध्यति. तृतीयाविभक्त्यां सप्तमीविभक्त्याम् अव्ययीभावसमासप्रसङ्गे इदं पदम् अव्ययीभावसमासयुक्तं पदम्. अव्ययीभावसमासस्य प्रसङ्गे तृतीया सप्तम्योर्बहुलम् इति सूत्रेण रूपद्वयं लेखितुं शक्नुमः. प्रत्येकं रूपं साधु, प्रत्येकस्मिन् इति साधुरूपं भवति. किन्तु षष्टिविभक्तिः अस्ति चेत् तथा न भवति, एकमेव रूपं तत्र सिध्यति. प्रत्येकमिति अव्ययीभावसमासयुक्तं पदं. पाठ्यम् इति पदमस्ति. पाठ्यं भगिनी भवती वक्तुमिच्छति वा पाठ्यम् इति कीदृशं? नीलं भगिनी भवती वक्तुमिच्छति वा
पाठ्यम्? अहं चिन्तयामि अत्र दीर्घः श्रूयते, निजन्त
धातुः पठ् धातुः अस्ति. पठ् धातोः परं ण्यत् इति प्रत्ययं योजयामः. तदर्थम् एकं सूत्रमस्ति, रुहलोर्ण्यत् इति सूत्रम्. इत्युक्ते ऋकारान्तधातूनां प्रसङ्गे, हलन्तधातूनां प्रसङ्गे ण्यत् इति कृत् प्रत्ययः विहितः भवति इति तेन सूत्रेण उच्यते, रुहलोर्ण्यत् इति सूत्रम्. अत्र धातुः पठ्, पठ् धातुः हलन्तधातुः, अतः ण्यत् प्रत्ययः विहितः भवति. ण्यत् प्रत्ययः णित् अस्ति, मूर्धन्यणकारः इत् संज्ञकः अस्ति तस्मिन् प्रत्यये ण्यत् इत्यत्र. तकारः हलन्त्यमित्यनेन इत् संज्ञकः भवति. अणकारः चुटु इति सूत्रेण इत् संज्ञकः भूत्वा अपगच्छति. तेन या अवशिष्यते. प्रत्ययः णित् अस्ति खलु, णित् अस्ति इति कारणतः अत उपधायाः इति सूत्रेण पठ् इति धातौ उपधायां ह्रस्व अकारः अस्ति इति कारणतः अत उपधायाः इति विशिष्टसूत्रेण अत्र णित् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति. धातौ अङ्गकार्यं भवति, तत्कार्यं वृद्धिकार्यं भवति. अतः पठ् इत्यस्य रूपं पाठ् भवति. पाठ्ययोगः या पाठ्य पाठ्यम् इति नपुंसकलिङ्गे रूपं सिद्ध्यति. रुहलोर्ण्यत् इति सूत्रम् अत उपधायाः इति सूत्रद्वयेन तत् रूपं सिद्ध्यति. पाठ्यं बुद्ध अस्ति चेत् बोध्यं, वच् अस्ति चेत् वाच्यं. वच् धातोः रूपमेव वाक्यं. वच् धातुतः वाक्यं रूपमपि सिद्ध्यति, वाच्यं रूपमपि सिद्ध्यति. क्रु धातुतः कार्यं, पच् धातुतः पाक्यं, वच् धातुतः वाक्यं, ह्रु धातुतः हार्यं, ध्रु धातुतः धार्यम्. अत्र रुहलोरण्यत् इति सूत्रं कार्यं करोति.
द्वयं सिद्ध्यति वा? पच् धातुतः पाक्यम् अपि पाठ्यमपि वा?
पाक्यम् इति रूपम् अस्ति,
पाठ्यम् इति नास्ति.
हलन्तधातूनां प्रसङ्गे, ऋकारान्तधातूनां प्रसङ्गे एव ण्यत् प्रत्ययः. किन्तु धातुः अजन्तधातुः अस्ति चेत् अचोयत् इति सूत्रेण यत् प्रत्ययः विहितः भवति. दा धातुः अस्ति चेत् देयम् इति रूपं भवति. धा अस्ति चेत् धेयं भवति. ते धातवः अजन्तधातवः, किन्तु तत्र अन्यानि विशिष्टानि कार्याणि सन्ति. धा धातुतः धेयं, पा धातुतः पेयं, दा धातुतः देयम् अवधेयम् इत्यत्र ध्येयम् इति रूपम् अस्ति खलु, तत्र यत् प्रत्ययः अस्ति. किमर्थम् एतत् वदन्ति अस्मि? पाठ्यं प्रसङ्गे वदन्ति अस्मि. त्रिषु स्तरेषु भेदः अस्ति मातुः पाठनशैल्यां. त्रिषु स्तरेषु भेदः अस्ति. भवतां पुरतः पुस्तकमस्ति चेत् अहमपि पुस्तकम् उद्घाटयामि. प्रक्रियानुसारी धातुपाठः इति पुस्तकं भवतां पुरतः अस्ति चेत् अवश्यं पञ्चदशपुटं पश्यन्तु, पेज् 15 पश्यन्तु. तत्र भुवादिगणीयधातवः दत्ताः, आदौ विशेषधातवः दीयन्ते. इत्युक्ते येषां येषां धातूनां प्रसङ्गे विशेषकार्याणि सन्ति, विशेषसूत्राणि सन्ति, ते धातवः आदौ स्थापिताः, पश्चात् सामान्यधातवः सन्ति. इफ् यु लुक् इन् टु द बुक् पेज् 23 मध्ये ष्ठीवति इति पदं दत्तमस्ति. ष्ठीवति इति पर्यन्तं तत्र विशेषधातवः सन्ति. विशेषधातवः भुवादिगणे कति सन्ति? 46 सन्ति. 46 धातवः, 46 धातवः विशेषधातवः भुवादिगणे सन्ति. इत्युक्ते माताजी आदौ विशेषधातूनां प्रसङ्गे लिखितवती, इत्युक्ते तेषां कृते अङ्गकार्यार्थं विशिष्टानि सूत्राणि अपेक्षितानि. तस्मात् परम् इगन्तधातवः दत्ताः. इगन्तधातवः इति कथनेन इकारान्ताः, उकारान्ताः, ऋकारान्ताः, एते धातवः अग्रिमेषु पुटेषु दत्ताः. इगन्तधातवः दत्ताः. इगन्तधातूनां प्रसङ्गे सामान्यसूत्राणि प्रवर्तनीयानि, विशेषधातूनां प्रसङ्गे विशेषसूत्राणि अपेक्षितानि. भुवादिगणे 46 विशेषधातवः सन्ति, अन्ये सर्वे सामान्यधातवः. सामान्यधातूनां प्रसङ्गे सामान्यसूत्राणि, इत्युक्ते सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इत्यादीनां सूत्राणां द्वारा अङ्गकार्यं कर्तुं शक्यते. अत्र क्रमः कः? आदौ वयं सिद्धतिङ् प्रत्ययान् निर्मामः, इत्युक्ते मूलतिङ् प्रत्ययेभ्यः सिद्धतिङ् प्रत्ययान् साधयामः. तेषां निर्माणम् एकस्मिन् प्रकोष्ठे भवति, अन्यस्मिन् प्रकोष्ठे अङ्गकार्यं कुर्मः, विशेषसूत्राणि उपयुज्य अङ्गकार्यं कुर्मः. अन्तिमसोपाने अङ्गतिङ् प्रत्ययोः मेलनं कुर्मः. सा एव पद्धतिः, मातुः पद्धतिः एवम् अस्ति. धातूनां प्रसङ्गे पुस्तकं पश्यामश्चेत् अवगन्तुं शक्नुमः. लकाराणां स्तरे भगिनी उक्तवती एव, पूर्वमपि पठितवन्तः, लकाराणां विभजनं कृतमस्ति. मातुः क्रमेण पठनेन, मातुः पाठनशैल्यां लकाराणां विभजनं कृतमस्ति. लकारक्रमस्य स्तरे अपि विभागः कृतः, सार्वधातुकलकाराः, आर्धधातुकलकाराः, एवं विभजनं कृतमस्ति. अपि च धातूनाम् आयोजनशैल्याम् अपि भेदः अस्ति. धातूनाम् आयोजनं कथं कृतवती? आर्धधातुकप्रक्रियायाः प्रसङ्गे आदौ अजन्तधातवः, अजन्तधातवः नवसु वर्गेषु सन्ति. अजन्तधातवः इति कथनेन धातोः अन्तिमवर्णम् अनुसृत्य अजन्तधातवः विभक्ताः नवसु वर्गेषु. हलन्तधातवः उपधायां कः ह्रस्ववर्णः अस्ति, उपधावर्णस्य आधारेण हलन्तधातवः चतुर्षु वर्गेषु विभक्ताः, अदुपधाः, इदुपधाः, उदुपधाः, रुदुपधाः, एवं चतुर्षु वर्गेषु हलन्तधातवः विभक्ताः, अन्ये सर्वे धातवः अवशिष्टाः. एवं धातूनाम् आयोजनं तार्किकरीत्या मातृभिः कृतमस्ति. प्रक्रियास्तरे अपि भेदः अस्ति, सार्वधातुकप्रक्रिया, आर्धधातुकप्रक्रिया. ईदृशी पाठनशैली विशिष्टा अस्ति. पुनः वदतु किञ्चित् अस्मिन् प्रसङ्गे.
अत्र अपि अत्र यः मातुः यः पाठ्यक्रमः तत्र स्थापितः, तत्र सूत्राधारेण सर्वं दत्तम्, इत्युक्ते पाणिनिसूत्रद्वारा तत्र सार्वधातुक प्रक्रियायां यानि सूत्राणि अपेक्षिताः ते सूत्र आधारेण एव सर्वं दत्तम्. इत्युक्ते यत् पाणिनि शैली अस्ति तदेव मातुः शैली इति अहं चिन्तयामि.
तदेव मातुः पद्धतिः पाणिनेः सूत्राणि अवलम्ब्य निर्मितमस्ति. प्रक्रियास्तरे अपि कुत्र भेदः अस्ति, कुत्र साम्यमस्ति, कस्मिन् सोपाने किं भवति इति वयं स्पष्टतया अवगन्तुं शक्नुमः. अष्टाध्यायीग्रन्थे ईकारान्तधातूनां प्रसङ्गे विशिष्टानि सूत्राणि सन्ति, आकारान्तानां प्रसङ्गे विशिष्टसूत्राणि सन्ति. इत्युक्ते अष्टाध्यायीग्रन्थे सूत्राणि यया रीत्या स्थापितानि सन्ति तत्सर्वम् अवगत्य मातृभिः एवं विभजनं कृतमस्ति. एकस्य इकारान्तधातोः रूपाणि वयं जानीमश्चेत् तत्सदृशानाम् अन्येषाम् इकारान्तधातूनां रूपाणि प्रयासं विना साधयितुं शक्नुमः. विना प्रयासम् अपरेषाम् इकारान्तधातूनां रूपाणि साधयितुं शक्नुमः. इकारान्तानां प्रसङ्गे एकं सूत्रमस्ति चेत् तेन एकेन सूत्रेण एकविधकार्यं भवति इति वयम् अवगन्तुं शक्नुमः. तेन अन्येषाम् इकारान्तानां प्रसङ्गे तत् सूत्रम् उपयुज्य रूपाणि साधयितुं शक्नुमः. भगिनी भवती वक्तुमिच्छति वा अवलम्ब्य इत्यत्र किं चिन्तनमस्ति?
अवलम्ब्य इति ल्युडन्तरूपम् अस्ति.
ल्यपन्तं ल्यप्
ल्यप् इति आव् इति उपसर्गपूर्वकः ल्यप् इति तत्र प्रत्ययः लम्भ धातु धातु किम् अस्ति भगिनि? लम्भ्य लम्भ
धातुः लभ्यो इदित् धातुः लभ्यो इति इदित् धातुः अस्ति. इदित् धातुः अस्ति चेत् किं कुर्मः? प्राकृतिकं कार्यं
नुमागमः भवति. अनन्तरं तत्र नकारस्य तत्र अनुस्वारः अनन्तरं तत्र ययि परस्वर्णः इति सूत्रेण मकारः आयाति लम्ब्य इति अनुस्वारस्य ययि परस्वर्णः. इदित् धातु इदित् धातूनां कृते तत्र एकं प्राकृतिककार्यं भवति इदितोन्नुमित्सूत्रेण तत्र नुमागमः भवति. नुमागमः मित् अस्ति अतः अन्तिम अच् परे एव भवति. लकारानन्तरं यः अकारः तस्य अनन्तरं नकारस्य आगमः भवति. अपदान्त तत्र नकारस्य अपि तत्र अनुस्वार आदेशः भवति. नश्च पदान्तस्य झलि तेन तेन सूत्रेण नकारस्य नुमागम ये नकारः आयाति तस्य अनुस्वार आदेशः भवति. परन्तु अनन्तरम् अनुस्वारस्य ययि परस्वर्णः इति सूत्रेण तत्र मकारः इति आदेशः. इत्युक्ते ब अस्ति तत्र पफ ब ब म इति तत्र मकारः आयाति. सो लम्भ्य लम्भ इति भवति लम्भ.
उत्तमम्. लम्ब् इति लौकिकधातुः अस्ति किन्तु उपदेशावस्थायां धातोः रूपं लभ्यो इदिति धातुः. अतः इदितोनुं धातोः सूत्रेण नुमागमः नकारः आदौ आयाति पश्चात् अपदान्तनकारः अस्ति इत्यतः नश्चापदान्तस्य झलि इति सूत्रेण झलि परे अनुस्वारादेशः भवति. इत्युक्ते अनुस्वारसहितं रूपम् आयाति पश्चात् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः भवति. तेन लम्ब् इति रूपं सिद्ध्यति. लम्ब् इति लौकिकधातोः रूपम् अव उपसर्गपूर्वक लम्ब् धातुतः ल्यप् प्रत्ययस्य योजनेन अवलम्ब्य इति रूपं सिद्ध्यति. ल्यप् इत्यस्मिन् प्रत्यये पकारः हलन्तिमित्यनेन इति संज्ञकः भवति. लकारः लषक्व तद्धिते इत्यनेन इति संज्ञकः भवति. य अवशिष्यते अतः अवयोगः लम्ब् योगः य अवलम्ब्य इति रूपं सिद्ध्यति. कुत्र कुत्र भेदः अस्ति इति स्पष्टतया लिखितमस्ति. नरसिंह हेग्डे महोदय भवान् पठतु.
भगिनि तस्मात् पूर्वं लेप् प्रत्ययः केन सूत्रेण विधीयते भगिनि?
पश्चात् वदामि.
धातुक्रमः वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि. पुंसि अकारान्तशब्दाः देव इव इकारान्तशब्दः मुनि इव उकारान्तशब्दः गुरु इव ऋकारान्तशब्दः कर्तृ इव श्रियां लता नदी मती धेनु मातृ क्लीबे वन मधु वारि अपि तथा नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः. अतः देवशब्दं जानीमश्चेत् बहून् शब्दान् जानीमः एव. अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव. रामशब्दस्य व्युत्पत्तिः प्रदर्शिता. इयञ्च व्युत्पत्तिः सर्वेषाम् अकारान्तपुल्लिङ्गशब्दानां कृते प्रतिनिधिः. तथैव अग्रेपि सर्वेषां प्रातिपदिकानां कृते इति.
महोदय एकवारं कृपया स्थगयतु. सूत्रमस्ति समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रमस्ति. समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रम् इत्युक्ते क्त्वा प्रत्ययस्य स्थाने ल्यपायाति. अनैपूर्वे तस्य शब्दस्य अपि प्राधान्यमस्ति. ल्यबन्तपदानि समस्तपदानि इति वक्तुं शक्यन्ते. अनैपूर्वे कृत्वा इति रूपम् अस्ति चेत् अकृत्वा इति एव वक्तव्यमस्ति. न कृत्वा इति वदामश्चेत् तत्र अर्थः भिद्येते तस्मिन् वाक्ये. यस्मिन् कस्मिन्नपि वाक्ये न इति पदम् अस्ति चेत् तत्पदं सर्वदा तिङ्गन्तपदेन सह तस्य अन्वयः भवति. न कृत्वा इति न कदापि लेखनीयं. सर्वदा किं लेखनीयम्? अकृत्वा, अपठित्वा, अज्ञात्वा इति एव लेखनीयमस्ति. अतः एव अस्मिन् सूत्रे अनैपूर्वे इति लिखितमस्ति. समासे अनैपूर्वे क्त्वो ल्यप् इत्युक्ते क्त्वा प्रत्ययस्य स्थाने ल्यपायाति. इदं सूत्रं ल्यप् प्रत्ययस्य विधायकसूत्रमस्ति. इदानीं भवान् वदतु.
अत्र एतत् परिच्छेदे अस्ति प्रातिपदिकानि अन्तिमवर्णम् आधारीकृत्य विभजितः. तत्र देव इव, अकारान्त इकारान्त मुनि इव, उकारान्त गुरु इव, ऋकारान्त कर्तृ इव. तत्र कौमुद्यसिद्धान्तकौमुद्यम् अपि तथा एव अस्ति. तत्र किमपि भेदः नास्ति प्रातिपदिकानां विषये. स्त्रियां लता नदी मुनि धेनु मातृ क्लेबेव न मधुवारि अपि तथा. ये नाम देवशब्दः यदि अकारान्तशब्दः एकं वयं जानीमः चेत् सर्वत्र अकारान्तशब्दानां ज्ञानं भवति. देवशब्दः जानीमः चेत् तत्र बहून् शब्दान् जानीमः. देव राम तादृश सर्व अकारान्तशब्दान् जानीमः. अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यं प्रातिपदिकं कृते तादृशी व्यवस्था एव अस्ति. रामशब्दं व्युत्पत्ति प्रदर्शिता, इयं च व्युत्पत्ति अकारान्तपुल्लिङ्गरामशब्द तादृशं प्रदर्शितमस्ति. इयं च व्युत्पत्ति सर्वेषाम् अकारान्तपुल्लिङ्गशब्दानां कृते प्रतिनिधिः. तथैव अग्रेपि सर्वेषां प्रातिपदिकानां कृते इति. इदानीम् अधोभागे दत्तमस्ति प्रातिपदिकानां कृते तु समानमेव, परन्तु धातु कृते मातु किं तत्र मातु क्रमभिन्ना अस्ति इति अधोभागे दत्तमस्ति. परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थितानि, तथापि एव एतावता केनापि तादृशम् आयं न कृतं. धातूनां कृते न सिद्धान्तकौमुद्यमस्ति न कुत्रापि अस्ति. मातु यत् कृतं तादृशरीति न सिद्धान्तकौमुद्यां न वा अन्यत्र. अधुनैव प्रथमवारम् ऐतिहासिकी पद्धति अक्रियत मात्रा पुष्पादीक्षिते. हिस्टोरिकल् मेथड् इस् इन्वेण्टेड् बै पुष्पदीक्षित् माता. तया सर्वे द्विसहस्रसातवचतुर्दशसु विभागेषु विभक्ताः. द्विसहस्रधातवः सेजन्ति. तत्र अन्तिमवर्णम् आधारीकृत्य चतुर्दशसु विभागेषु विभक्तः. अजन्तदातवः अन्त्यक्रमेण आयोजिताः. अलन्तदातवः उपधाक्रमेण विभक्ताः. अचुवर्णः अन्ते यत् अस्ति तत् अन्तिमो स्वरस्य आधारेण कृतम् अस्ति. यत्र हलन्त अन्ते हल् वर्णः अस्ति तत् उपधायं यत् वर्णम् अस्ति तदनुसृत्य कृतमस्ति. किमर्थं तथा? पाणिनीयसूत्राणि तथा सन्ति. एतादृशं किमर्थं कथमस्ति इत्युक्ते तत्र पाणिनीयसूत्राणि यत् रचितमस्ति तादृशमेव अस्ति. अन्तिमस्वरम् आधारीकृत्य अथवा उपधास्वरम् अनुसृत्य एव अस्ति सूत्राणि. अतः तत्र अवगमनं सुलभं भवति. अजन्तदातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरस्य अनुसृत्य भवति. अतः मात्रा एवमेव रीत्या अजन्तदातोः विभक्ताः. अकारान्तः अकारान्तः इकारान्तः इकारान्तः उकारान्तः उकारान्तः ऋकारान्तः ऋकारान्तः अयन्तः च. हलन्तदातूनां कृते पाणिनीयसूत्राणां कार्यम् उपधायम् अनुसृत्य भवति. नाम अन्तिमवर्णात् प्राक् यः वर्णः तम् अनुसृत्य इति. अतः तत्र हलन्तदातूनां कृते अधुपद इदुपद उदुपद ऋदुपद शेषधातो यच्छ इति कृतमस्ति. मात्रं तत्र किमर्थम् इत्युक्ते सूत्राणि तादृशमस्ति. अतः अन्तिमस्वरम् अथवा उपधास्वरम् अनुसृत्य एव सूत्राणि सन्ति. अतः मातु किं कृतवती? धातूनाम् अपि तादृशमेव विभक्तुं कृतवती. अतः एकस्त स्वरस्य अन्तिमवर्णम् आधारीकृत्य एकं धातुं वयं जानीमः चेत् तत्र सर्वं धातुं तादृशधातूनाम् अवगमनं भवति. तत्र अनेन क्रमेण सर्वे धातवः पाणिनिसूत्रानुसारेण समायोजिताः. अत्र कानिचन सूत्राणि प्रदर्शितानि यत्र तदन्तानुगुणं कार्यं साधितम्. अग्रे तत्र किम् उदाहरणं दत्तमस्ति इति दत्तमस्ति.
साधु महोदय, धन्यवादाः. सुबन्तप्रक्रियां पठामश्चेत् इतोपि स्पष्टतया अवगन्तुं शक्नुमः. सुबन्तप्रक्रियायां प्रातिपदिकात् सुप्रत्ययं योजयामः, तेन सुबन्तरूपाणि साधयितुं शक्नुमः. इत्युक्ते सुबन्तप्रक्रियायाः प्रसङ्गे मातुः पद्धतिः कौमुदीमार्गः द्वयमपि समानमेव, उभयत्र भेदः नास्ति. विवरणं समानं, चिन्तनं सर्वं समानमस्ति सुबन्तप्रक्रियायाः प्रसङ्गे. इत्युक्ते देव इति अकारान्तप्रातिपदिकं खलु, देवशब्दं वयं जानीमश्चेत् अन्येषाम् अकारान्तपुंलिङ्गशब्दानां रूपाणि सुलभतया साधयितुं शक्नुमः. रामशब्दं जानीमश्चेत्, रामशब्दस्य व्युत्पत्तिं जानीमश्चेत् वयम् अपरेषाम् अकारान्तपुंलिङ्गपदानां रूपाणि साधयितुं शक्नुमः. इत्युक्ते प्रतिनिधिरूपेण प्रतिनिधिशब्दस्य रूपाणि स्थापितानि सन्ति. इत्युक्ते सुबन्तप्रक्रियायाः प्रसङ्गे द्वयोः पद्धत्योः भेदः नास्ति. मातुः पद्धतिः कौमुदीमार्गः, अनयोर्मध्ये भेदः नास्ति सुबन्तप्रक्रियायाः प्रसङ्गे. किन्तु उपद्विसहस्रं धातवः, बहवः धातवः सन्ति खलु, तेषां रूपसिद्धिः इत्युक्ते तिङन्तरूपसिद्धिः कथं भवति, तत्र तु काठिन्यमस्ति. तदर्थमेव एतादृशम् आयोजनं कृतवती माताजी. इत्युक्ते तिङन्तरूपसाधनवेलायां भिन्नरीत्या माताजी चिन्तनं कृतवती. अष्टाध्यायीग्रन्थे सूत्राणि तादृशक्रमेण सन्ति इति मुख्यवार्ता. माताजी ईदृशम् आयोजनं किमर्थं कृतवती इत्युक्ते पाणिनीयसूत्राणि अवलम्ब्य एव माताजी एवं कृतवती. इत्युक्ते अष्टाध्यायीग्रन्थे सूत्राणि अनया रीत्या स्थापितानि सन्ति. इत्युक्ते सर्वेषाम् इकारान्तधातूनां प्रसङ्गे तिङन्तरूपसाधनार्थं तिङन्तरूपसम्बद्धानि सूत्राणि सर्वाणि एकत्र स्थापितानि सन्ति. इकारान्तधातूनां सम्बद्धानि सूत्राणि एकत्र सन्ति. उकारान्तधातुसम्बद्धसूत्राणि अङ्गकार्यार्थम् उकारान्तधातूनां प्रसङ्गे सूत्राणि सर्वाणि अष्टाध्यायीग्रन्थे एकत्र स्थापितानि. इत्युक्ते एतादृशक्रमः अष्टाध्यायीग्रन्थे अस्ति. एतादृशक्रमः अस्ति इति मातृभिः अवगतम् अष्टाध्यायीग्रन्थस्य आधारेण एव माताजी ईदृशं विभजनं कृतवती. पठनपाठनसौलभ्यार्थम् इयं नूतना पद्धतिः निर्मिता. अत्र ऐतिहासिकी पद्धतिः इति लिखितमस्ति. ऐतिहासिकी इति पदमपि तद्धितान्तं पदमेव. इतिहास इति प्रातिपदिकात् निर्मितं पदम् ऐतिहासिकी. अक्रियत, सुन्दरमहोदय भवान् वदतु, अक्रियत इति कीदृशं पदम्?
कृदातोः कर्मणि प्रयोगः क्रियत, कर्मणि प्रयोगः अक्रियत इति लङ् रूपम् अस्ति. अक्रियत, अक्रियेताम्, अक्रियन्त इति
लङ् रूपम् अस्ति. क्रूधातोः कर्मणि लट् रूपम् अस्ति क्रियते, क्रियते. तत्रापि सार्वधातुके यक् सूत्रं कार्यं करोति, अपि च इतोपि अन्यत् सूत्रमपि कार्यं करोति. क्रू इति ऋकारान्तधातुः खलु, अतः एकं विशिष्टं सूत्रं तत्र अपेक्षितमस्ति. तेन कर्मणि लट् रूपं क्रियते, किन्तु लङ्लकारे अडागमः भवति. क्रियते इत्यत्र अन्ते आत्मनेपदसंज्ञकप्रत्ययाः सन्ति खलु, क्रियते, क्रियेते, क्रियन्ते, तत्र आत्मनेपदरूपाणि आयन्ति खलु, लङ्रूपाणि अपि आत्मनेपदिवत् भवन्ति. अतः अक्रियत इति रूपं भवति. अवर्तत, अवन्दत इव. अवर्तत, अवन्दत इत्यत्र धातुः एव आत्मनेपदी धातुः, अतः अवन्दत इति रूपं लङ्रूपं सिद्ध्यति. किन्तु क्रूधातुः उभयपदी धातुः, अत्र कर्मणि लट् अस्ति इति कारणतः तिङन्तरूपस्य अन्ते आत्मनेपदसंज्ञकप्रत्ययः आयाति, अतः एव लङ्रूपमपि एवं दृश्यते. अजन्तधातवः धातूनाम् अन्तिमवर्णम् आश्रित्य भवन्ति. किमर्थं चेत् अष्टाध्यायीग्रन्थे पाणिनेः सूत्राणि तथा सन्ति, अतः अजन्तधातवः नवसु वर्गेषु धातोः अन्तिमवर्णम् अनुसृत्य विभक्ताः. हलन्तधातवः उपधावर्णम् अनुसृत्य विभक्ताः. उपधायां कः वर्णः अस्ति इत्यस्य आधारेण चतुर्षु वर्गेषु विभक्ताः. अत्र कानिचन सूत्राणि दत्तानि. सर्वाणि सूत्राणि अस्माकं कृते परिचितानि न सन्ति, वयं न जानीमः, किन्तु कानिचन सूत्राणि जानीमः. नरेश महोदय भवान् अग्रे पठतु. ईगन्तधातूनां कृते त्रीणि सूत्राणि दत्तानि.
अग्रे इगन्त धातुः अत्र अङ्गकार्यं इगन्तर्
नो चेत् अजन्तधातवः, तस्मात् आरभ्य पठतु.
आकारान्तधातूनां कृते अङ्गकार्यम् आटो लोप इति च श्राभ्यस्तरो तयोरातः आतो युक् चिन्कृतोः प्रत्ययाः विहिताः आतो उपसर्गे आतो मनिन् क्वने वनेपश्च आतो युच्.
अहं किं पठितवती इति एकवारं किञ्चित् वदामि. अत्र अजन्तधातवः इति दत्तं खलु. मातृभिः किमर्थम् एवं विभजनं कृतमस्ति इति अवगन्तुम् ईदृशानि सूत्राणि एकत्र स्थापितानि. आकारान्तधातूनां कृते अङ्गकार्यार्थं सूत्राणि सन्ति. इत्युक्ते इमानि त्रीणि सूत्राणि आकारान्तधातूनां प्रसङ्गे कार्यं कुर्वन्ति. श्नाभ्यस्तयोरातः इति सूत्रं वयं पूर्वं दृष्टवन्तः. श्नाविकरणप्रत्ययान्तम् अङ्गम् इत्युक्ते क्रियादिगणे श्ना इति विकरणप्रत्ययान्तम् अङ्गं सिद्ध्यति खलु. क्रियादिभ्यः श्ना इति सूत्रमस्ति. श्नाविकरणप्रत्ययान्तम् अङ्गम् अस्ति. अपि च अभ्यस्तसंज्ञक अङ्गम् अस्ति. अभ्यस्तसंज्ञा जुहोत्यादिगणे भवति. श्नाभ्यस्तयोरातः इदं सूत्रं क्रियादिगणस्य प्रसङ्गे अपि च जुहोत्यादिगणस्य प्रसङ्गे कार्यं करोति. अत्र आतः लोपः भवति इति पूर्वं दृष्टवन्तः. आतो युक् चिण् कृतोः इति सूत्रमस्ति. इदं सूत्रमपि आकारान्तधातूनां प्रसङ्गे कार्यं करोति. आतः युक् चिण् कृतोः अनेन सूत्रेण युक् आगमः भवति. आकारान्तधातूनां प्रसङ्गे णिति कृति प्रत्यये परे चिण्वद्भावः इति अन्यः विषयः अपि अस्ति. तस्य प्रसङ्गः इदानीं मास्तु. णिति कृति प्रत्यये परे आकारान्तधातूनां प्रसङ्गे युक् आगमः भवति इति अनेन सूत्रेण उच्यते. अनेन सूत्रेण किं रूपं साधयितुं शक्नुमः इति एकवारं वदामि. भवन्तः सर्वे जानन्ति खलु गायकः इति रूपम् अस्ति. दायकः, धायकः इत्यादीनि रूपाणि. धा धातुः आकारान्तधातुः, दा धातुः आकारान्तधातुः. तेषां प्रसङ्गे आकारान्तधातूनां प्रसङ्गे युक् आगमः भवति नुवल् प्रत्ययान्तरूपेषु. दायकः, गायकः, धायकः इमानि रूपाणि णुवल् प्रत्ययान्तरूपाणि. सुन्दरमहोदय, भवान् वदतु, णुवल् प्रत्ययस्य योजनेन दायक इत्यत्र किं भवति?
णुवल् प्रत्ययस्य योजनेन दायोगे णुवल् भवति. तदनन्तरं णकारस्य चुटु इति सूत्रेण णकारस्य इत्संज्ञा भूत्वा लोपः भवति. लकारस्य अपि हलन्त्यम् इति सूत्रेण लोपः भवति. ऊ एव अवशिष्यते. ऊ इत्यस्य युवरणाकौ इति सूत्रेण अक इति आदेशः भवति. दायोगे अक दायक इति भवति.
या कुतः आगतः
दायकः? दायोगे तदेव युक् युक् इति आगमः भवति किल, तत् कित् भवति इति कारणेन आद्यन्तौ टकितौ इति सूत्रेण कित् आगमः भवति. दायोगे तद् अनन्तरमेव आगच्छति आद्यन्तौ टकितौ इति सूत्रेण. सो दायोगे यक् तदनन्तरं युक् ओके युक् तदनन्तरं ककारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. ऊ उच्चारणार्थम् एव इति मन्ये. सो दा योगे य योगे अकः ओके अकः. सो ऐ थिङ्क् तत्रापि तत्र गुणः ऐ थिङ्क् दट् दीर्घः न भवति.
अत्र किं चिन्तनम् इत्युक्ते, यथा महोदयेन उक्तमस्ति, दा इति आकारान्तधातुः अस्ति. णुवल् प्रत्यये अनुबन्धलोपे सति ऊ अवशिष्यते. पश्चात् युवोरणाकौ सूत्रेण अक आदिष्टः भवति. दायुगः अक इति स्थितिः अस्ति. अत्र आतो युक् चिण् कृतोः इति सूत्रेण युक् आगमः भवति. युक् कित् अस्ति. ककारः इति संज्ञकः. उकारः अपि उच्चारणार्थः. उकारः अपि अपगच्छति. ककारः अपि अपगच्छति, केवलं यकारः एव तिष्ठति. दायोगः यकारः योगः अक, केवलं वर्णमेलनेन दायक इति प्रातिपदिकं त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. दायकः, दायिका, दायकम् इत्यादीनि रूपाणि साधयितुं शक्नुमः. गै धातुः कथम् आकारान्तः भवति? अयं प्रत्ययः नुवल् प्रत्ययः आर्धधातुकः खलु, अतः आर्धधातुकप्रक्रिया अनुसरणीया. आर्धधातुकप्रक्रियायाम् एजन्तधातवः आकारान्ताः भवन्ति आदे च उपदेशे शिति इति सूत्रेण. अतः गै इति धातुः आकारान्तधातुः भवति नुवल् प्रत्ययपरे आदे च उपदेशे शिति इति सूत्रेण. अशित् प्रत्ययपरे एजन्तधातवः आकारान्ताः भवन्ति इति तेन सूत्रेण उच्यते. इत्युक्ते आर्धधातुकप्रक्रियायां गै धातुः गा इति भवति. अतः गा इति रूपमस्ति. पश्चात् अतो युक् चिण्कृतोः इति सूत्रेण युक् आगमः भूत्वा गायक इति प्रातिपदिकं सिद्ध्यति. पुंलिङ्गे गायकः, स्त्रीलिङ्गे गायिका इति रूपं सिद्ध्यति. तत्र इदं सूत्रं कार्यं करोति. अग्रे आतोनुपसर्गे कः इत्युक्ते अजन्तधातुषु कीदृशप्रत्ययाः विहिताः भवन्ति. आकारान्तधातूनां कृते अङ्गकार्यार्थम् उपरितनत्रीणि सूत्राणि आतोलोप इति च. अत्र आतोलोप इति लेखनीयमस्ति, अत्र मुद्रणदोषः अस्ति. आतोलोप इति च स्नाभ्यस्तयोरातः आतोयुक् चिण्कृतोः त्रीणि सूत्राणि अङ्गकार्यार्थम् आकारान्तधातूनां कृते प्रवर्तनीयानि. अपि च आकारान्तधातूनां कृते के के प्रत्ययाः विहिताः भवन्ति इति प्रश्ने सति इमानि त्रीणि सूत्राणि आवश्यकानि. आतोनुपसर्गे कः इति सूत्रमस्ति. भवन्तः सर्वे जानन्ति खलु धनदः इति समस्तपदमस्ति. इदं सूत्रं समस्तपदानां प्रसङ्गे कार्यं करोति. आतोनुपसर्गे कः इति सूत्रं समस्तपदानां प्रसङ्गे आयाति. धनदः, धनं ददाति इति विग्रहवाक्यं. धनदः कः? कुबेरः. कुबेरस्य नाम धनदः. धनं ददाति इति विग्रहवाक्यं. धनदः इति रूपसाधनवेलायाम् आतोनुपसर्गे कः इति विशिष्टसूत्रेण. अत्र दाधातुः अस्ति. दाधातोः आकारान्तधातुः, अतः अनेन सूत्रेण क इति प्रत्ययः विहितः भवति. सूत्रेण किमुच्यते? आकारान्तेभ्यः धातुभ्यः अनुपसर्गेभ्यः धातुभ्यः कर्त्रर्थे उपपदे क प्रत्ययः भवति. क इति प्रत्ययः, कः इति सूत्रे लिखितमस्ति खलु. प्रथमान्तं पदम् आतोनुपसर्गे कः इति कथनेन कः इति प्रथमान्तं पदमस्ति इति कारणतः क इति प्रत्ययः विहितः भवति. आकारान्तेभ्यः धातुभ्यः अनुपसर्गेभ्यः धातुभ्यः कर्मणि उपपदे कर्त्रर्थे, तत्पदं कर्त्रर्थे एव भवति. धनदः इति पदं कर्त्रर्थकं पदमस्ति. अत्र उपसर्गः नास्ति, किन्तु उपपदमस्ति. धनम् इति उपपदमस्ति. धनं ददाति इति धनदः. एवमेव कम्बलदः, कम्बलं ददाति इति कम्बलदः. गोदः इति रूपमपि अस्ति. गां ददाति इति गोदः. तस्मिन् प्रसङ्गे आतोनुपसर्गे कः इति सूत्रम् आयाति. अस्मिन्नेव प्रसङ्गे आतोलोप इटि च इति सूत्रेण आकारस्य लोपः अपि भवति. आतोलोप इटि च इति सूत्रेण आकारस्य लोपः अपि अस्य शब्दस्य रूपसाधनवेलायां भवति. धनयोगः दा इति रूपमस्ति. दा इत्यस्य आकारस्य लोपः भवति, तेन धनद इति रूपं सिद्ध्यति. धनदः इति प्रथमाविभक्ति एकवचनरूपं. तत्र आकारस्य लोपः आतोलोप इटि च सूत्रेण भवति. धनदः इत्यस्मिन् प्रसङ्गे आतोनुपसर्गे कः इति सूत्रेण क इति प्रत्ययः विहितः भवति. अपि च द इति आकारान्तधातोः आकारस्य लोपः आतोलोप इटि च सूत्रेण भवति. अग्रे आतोयुच् अनेन सूत्रेण अपि प्रत्ययानां विधानं भवति. इदं सूत्रमपि आकारान्तधातूनां प्रसङ्गे एव उक्तमस्ति. भवन्तः श्रुतवन्तः इति भाति. दुष्पानः, सुपानः, ईषत्पानः इत्यादीनि रूपाणि सन्ति आकारान्तेभ्यः धातुभ्यः युच् प्रत्ययः भवति. कदा? सुखदुःखेषु, ईषत्कृच्छ्रेषु, उपपदेषु, आकारान्तेभ्यः धातुभ्यः युच् इति प्रत्ययः भवति. आतो युच् इति कथनेन आकारान्तेभ्यः धातुभ्यः युच् इति प्रत्ययः भवति. प्रक्रिया कीदृशी अस्ति इति अन्या वार्ता. तेन ईदृशानि पदानि साधयितुं शक्नुमः. दुष्पानः, सुपानः, ईषत्पानः इत्यादीनि रूपाणि साधयितुं तत्र इदं सूत्रम् आवश्यकमस्ति. तत्र युच् इति प्रत्ययः अस्ति. अत्र एकम् अन्यत् सूत्रं दत्तमस्ति, आतो मनिन् क्वनिप् वनिपश्च. इदं सूत्रमपि आकारान्तधातूनां प्रसङ्गे एव उक्तमस्ति. अनेन सूत्रेण अश्वत्थामा इति रूपं साधयितुं शक्नुमः. अश्वत्थामा इति सुबन्तपदं, प्रातिपदिकमस्ति अश्वत्थामन्. अश्वत्थामा शब्दस्य प्रातिपदिकम् अश्वत्थामन्, नकारान्तप्रातिपदिकमस्ति. तत्र मनिन् इति प्रत्ययः अस्ति. स्था इति धातुः अस्ति. स्था धातुः आकारान्तधातुः. अश्व योगः स्था योगः मनिन् इति रूपम् अस्ति. तत्र अन्यानि कार्याणि भूत्वा अश्वत्थामन् इति प्रातिपदिकं सिद्ध्यति. प्रथमाविभक्ति एकवचनरूपम् अश्वत्थामा. महाभारते वयं शृणुमः खलु. एवमेव सुदामा. सुदामा इति पदमपि मनिन् प्रत्ययस्य योजनेन एव सिद्ध्यति. दा इति आकारान्तधातुः अस्ति. सुदामन् इति प्रातिपदिकमस्ति, नकारान्तप्रातिपदिकमस्ति. सुदामा इति प्रथमाविभक्ति एकवचनरूपम् अस्ति. तत्र मनिन् इति प्रत्ययः अस्ति. अयं मनिन् प्रत्ययः आकारान्तेभ्यः धातुभ्यः एव विहितः भवति. अपि च इदं सूत्रं छन्दसि एव कार्यं करोति. अनेन सूत्रेण वेदेषु एव छन्दसि एव अस्य प्रसक्तिः अस्ति. अनेन सूत्रेण छन्दसि एव आकारान्तेभ्यः धातुभ्यः मनिन् क्वनिप् वनिप् इति त्रयः प्रत्ययाः विहिताः भवन्ति अनेन सूत्रेण. मनिन् प्रत्ययस्य योजनेन सुदामा, अश्वत्थामा इत्यादीनि पदानि सिद्ध्यन्ति. क्वनिप् इति अपि अन्यप्रत्ययः अस्ति. तेन सुपीवा, तदपि नकारान्तप्रातिपदिकमेव, सुपीवन् इति प्रातिपदिकं सिद्ध्यति. किन्तु प्रथमान्तं पदमस्ति सुपीवा. एवं छन्दसि विशेषप्रत्ययाः सन्ति. एते प्रत्ययाः आकारान्तेभ्यः धातुभ्यः एव विहिताः भवन्ति. एतादृशं समग्रचिन्तनं मातुः मनसि अस्ति. अतः माताजि एवं धातूनां विभजनं कृतवती. नरेश महोदय, भवान् किम् अवगतवान्? किञ्चित् वदतु.
अत्र किञ्चित् सूत्राणि सन्ति. आतो लोप इति च श्यानभ्यस्तोरातः आतो युक् चिन्कृतोः. अत्र प्रथम तु आतो लोपः. तत्र आतस्य लोपः कुतः भवति तत् अस्ति. अपि च वयं दृष्टवन्तः आतो युक् चिन्कृतोः गा धातुः अस्ति. तत्र युक् प्रत्ययः आगतः. ककारस्य यत्संज्ञा भवति, उकारस्य तत्तु उच्चारणार्थम् अस्ति, य स्थीयते. तत्र ग योग य अपि च युवोर्नाकौ तत्र अक स्थीयते. तथा गा योग य योग क गायकः भवति पुल्लिङ्गे. अपि च वयं दृष्टवन्तः अश्वत्थामा किं कथं भवति. स्था धातुः तत्र मनिन् प्रत्ययः अस्ति. अश्वत्थाम, अश्वत्तु प्रथम शब्दः अस्ति. अश्वस्था मन् भवति. अश्वत्थामन् प्रातिपदिकम् अस्ति अश्वत्थाम पुल्लिङ्गे भवति.
उत्तमम्. अश्वत्थाम इत्यस्य अर्थः कः? इन् ए बेटल् अश्वः इव तिष्ठति. वन् हू स्टाण्ड्स् लैक् ए हार्स् इन् ए बेटल् अश्वः इव तिष्ठति इति तस्य अर्थः. अश्वत्थाम इन् ए बेटल् अश्व इव तिष्ठति इति. अपि च आकारान्तानां प्रसङ्गे अङ्गकार्यार्थं त्रीणि सूत्राणि, प्रत्ययानां विधानार्थम् इमानि सूत्राणि सन्ति. युच् प्रत्ययः, का प्रत्ययः, मनिन् प्रत्ययः, आतो मनिन् क्वनिप् वनिपश्च इति छन्दसि एव तस्य कार्यमस्ति इति मया ज्ञातम्. अस्तु, आकारान्तरं प्रसङ्गे किञ्चित् चिन्तनं कृतवन्तः वयम्. ईगन्तानां प्रसङ्गे कानि कानि सूत्राणि सन्ति इति अग्रिमे वर्गे द्रक्ष्यामः. अत्र एरचित् सूत्रं दत्तमस्ति अधोभागे, प्रत्ययाः विहिताः इत्यत्र इकारान्तधातूनां कृते एरच् एः अच् पदविच्छेदं कुर्मः चेत् एः अच् एः इति ई इति शब्दस्य पञ्चम्यन्तम्. एः इत्युक्ते ईवर्णान्तधातूनां प्रसङ्गे अच् इति प्रत्ययः भवति इति अनेन सूत्रेण उच्यते. एरच् इति सूत्रेण एव भयम् इति पदं साधितमस्ति. भयम् इति पदस्य साधनार्थम् एकं विशेषवार्तिकमपि अस्ति. भयादीनाम् उपसङ्ख्यानं नपुंसके क्त्वादिनिवृत्त्यर्थम् इति वार्तिकेन भयम् इति रूपं साधयितुं शक्नुमः. भयं रूपसिद्ध्यर्थं वार्तिकमस्ति. भीधातोः रूपमेव भयं. भीधातुः जुहोत्यादिगणे अस्ति. बिभेति इति रूपमस्ति. भीधातुतः अच् प्रत्ययस्य योजनेन भय इति प्रातिपदिकं सिद्ध्यति. किन्तु विशिष्टवार्तिकेन नपुंसकलिङ्गे भयम् इति रूपं साधयितुं शक्नुमः. एरच् सूत्रेण एव जयः, विजयः, क्षयः इत्यादीनि रूपाणि साधयितुं शक्नुमः. जी धातुतः जयः, क्षी धातुतः क्षयः, ची धातुतः चयः, ई धातुतः अयः इत्यादीनि रूपाणि एरच् सूत्रेण निर्मातुं शक्नुमः. रुहलोर्ण्यत् अहम् उक्तवती अस्मिन्नेव वर्गे, ऋकारान्तधातूनां कृते रुहलोर्ण्यत्. सर्वे कृत् प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते. ऋकारान्तानां प्रसङ्गे रुहलोर्ण्यत् सूत्रेण ण्यत् प्रत्ययः विहितः भवति. अयं ण्यत् प्रत्ययः सर्वेभ्यः धातुभ्यः न विहितः भवति, केवलं ऋकारान्तानां कृते, हलन्तानां कृते एव. एतेषां प्रसङ्गे अग्रिमे सप्ताहे इतोपि स्पष्टतया अवगन्तुं प्रयत्नं करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.
धन्यवादः महोदय.